इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचको युवराज भट्टराई। आदौ मुख्य वार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी प्रोक्तवान् यत् सप्तचत्वारिंशदुत्तर द्विसहस्रतम वर्ष पर्यन्तं भारतं विकसितं राष्ट्रं कर्तुं प्रवासी भारतीय जनानां महत्वपूर्णा भूमिका वर्तते। उत्तरप्रदेशस्य प्रयागराजे कुम्भनगर्यां सोमवासरात् आयोक्ष्यमाणस्य महाकुम्भस्य अनुष्ठानस्य सज्जताः समाप्तप्रायाः सन्ति। केन्द्रीय पथ परिवहन राजमार्ग मन्त्री नितिन गडकरी अवोचत् यत् प्रशासनस्य लक्ष्यं राष्ट्रस्य ऊर्जा आयातकात् ऊर्जा निर्यातकरूपे परिवर्तनं वर्तते। अपि च बैडमिंटन स्पर्धायां भारतस्य एचएस प्रणयः अद्य क्वालालम्पुर नगरे मलेशिया ओपन इति स्पर्धायाः पुरुषवर्गे प्राक् प्रागुपान्त्य चक्रे चीनस्य ली शिफेंग इत्यनेन पराभूतः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री श्री नरेन्द्र मोदी प्रोक्तवान् यत् सप्तचत्वारिंशदुत्तर द्विसहस्रतम वर्ष पर्यन्तं भारतं विकसितं राष्ट्रं कर्तुं प्रवासी भारतीय जनानां महत्वपूर्णा भूमिका वर्तते। श्रीमोदी ओडिशायाः भुवनेश्वर मध्ये अष्टादश प्रवासी भारतीय दिवसस्य औपचारिकोद्घाटनस्य अनन्तरं जनसभां सम्बोधयति स्म। प्रधानमन्त्रिणा वैश्विक विकास यात्रायां भारतस्य च विकास यात्रायां प्रवासी भारतीयानां महत्वपूर्णा भूमिकापि प्रशंसिता। अमुना समस्ते विश्वे राजदूतरूपेण भारतीय प्रवासीनाम् उत्कृष्ट कार्याणि तेषाम् उपलब्धयश्च देशं गौरवान्वितं कुर्वन्ति इत्यपि प्रोक्तम्। प्रधानमन्त्रिणा श्रीमोदिना प्रवासी भारतीयेभ्य वैश्विक सम्मान प्रदानार्थं भारतीय मूल्यानां भूमिकापि रेखांकिता। श्रीमोदी उदैरयत् यत् विगतेषु दशवर्षेषु अमुना नैकै विश्वनेतृभिः समं सम्भाषणम् आचरितम्। विश्वस्य सर्वेऽपि नेतारः प्रवासी भारतीयानां श्लाघामेव कुर्वन्ति। अमुना प्रोदितं यत् अस्य मुख्य कारणं तेषां सामाजिक मूल्यं वर्तते, यद्धि प्रवासी भारतीयै विश्वसमुदायेषु प्रकटीकृतमस्ति। भारतस्य लोकतान्त्रिक मूल्यानां महत्वविषये प्रकाशं कुर्वन् श्रीमोदी अभाषत यत् भारतं न केवलं लोकतन्त्रस्य जननी वर्तते, प्रत्युत लोकतन्त्रं तु अस्माकं जीवनशैल्यां समाहितम् अस्ति।
हम सिर्फ मदर ऑफ डेमोक्रेसी ही नहीं है, बल्कि डेमोक्रेसी हमारी लाइफ का हिस्सा है। हमें डायवर्सिटी सिखानी नहीं पड़ती, हमारा जीवन ही डायवर्सिटी से चलता है। इसलिए भारतीय जहां भी जाते हैं वहां की सोसाइटी के साथ जुड़ जाते हैं, और इन सबके साथ ही हमारे दिल में भारत भी धड़कता रहता है।
प्रधानमन्त्री प्रावोचत् यत् विगते दशके भारते पञ्चविंशतिः कोट्यधिकाः जनाः निर्धनतः बहिरागताः सन्ति। अनेन साकमेव राष्ट्रं तृतीयां बृहत्तमीम् अर्थव्यवस्थां भवितुमपि अग्रसरं वर्तते।
जिस स्केल पर आज भारत में डेवलपमेंट के काम हो रहे हैं वो अभूतपूर्व है। सिर्फ 10 साल में भारत ने अपने यहाँ 25 करोड़ लोगों को गरीबी से बाहर निकाला। भारत दुनिया की 10th लार्जेस्ट इकोनॉमी से ऊपर उठकर 5th लार्जेस्ट इकोनॉमी बन गया है।
अमुना एतदपि भणितं यत् राष्ट्रं नवीकरणीयोर्जा, वैद्युतिक गतिशीलता, योधक विमान विनिर्माण, मेट्रो बुलेट रेलयानानि समेत्य सर्वेषु क्षेत्रेषु उत्कृष्टं प्रदर्शनं करोति। अथ च शीघ्रमेव प्रवासी भारतीयाः विमान विनिर्माणे मेड इन इण्डिया इति कार्यक्रमे योगदानं करिष्यन्ति। अस्मिन् अवसरे श्रीमोदी सविशेषं प्रत्यपादयत् यत् भारतस्य युवा जनसंख्या विशेष सामर्थ्ययुता वर्तते, अतः प्रशासनस्य मुख्योद्देश्यः देशस्य युवजनानां कौशलोन्नयने सामर्थ्य संवर्धने च वर्तते। कार्यक्रमस्य अन्तर्गतं प्रधानमन्त्रिणा नैकाः प्रदर्शनीः चापि उद्घाटिताः, याः खलु भारतस्य समृद्ध सांस्कृतिक रिक्थानि प्रदर्शयन्ति। अत्रावसरे विदेश मन्त्री एस जयशंकरः प्रवासी भारतीय दिवसस्य प्रतिपालनं मोदिनः पूर्वोदय नीतेः अन्तर्गतम् अस्माकं प्राच्य संस्कृतेः विश्वस्तरे प्रतिष्ठापनं वर्तते इति प्रत्यपादयत्। श्रूयताम् तावत्।
The very people-centric changes we promote in India also benefit the diaspora. This could be enhancing the ease of doing business, promoting ease of living, or facilitating connectivity and travel. The application of digital technologies to ensure diaspora welfare is also apparent.
अस्मिन् अवसरे प्रधानमन्त्री श्रीमोदी प्रवासी तीर्थ दर्शन योजनायाः अन्तर्गतं प्रवासी भारतीयानां कृते एकस्य प्रवासी भारतीय एक्सप्रेस इत्याख्यस्य विशेष पर्यटक रेलयानस्य उद्घाटनमपि हरितध्वज प्रदर्शन पुरस्सरं कृतवान्। दिल्ल्याः निजामुद्दीन स्थासनतः प्रचाल्यमानं इदं रेलयानं सप्ताहत्रयं यावत् प्रवासी भारतीय जनान् समग्र देशस्य विभिन्नेषु धार्मिक पर्यटन स्थलेषु नेष्यति। अस्मिन् कार्यक्रमे विदेशमन्त्री डॉक्टर सुब्रह्मण्यम जयशंकरः, केन्द्रीयमन्त्री धर्मेन्द्र प्रधानः, अश्विनी वैष्णवः, ओडिशायाः राज्यपालः हरिबाबू कम्भमपतिः, मुख्यमन्त्री मोहन चरण माझी सहिताः अन्येऽपि गणमान्याः जनाः सम्मिलिताः आसन्। उत्तरप्रदेशस्य प्रयागराजे कुम्भनगर्याम् महाकुम्भस्य अनुष्ठानस्य सज्जताः समाप्तप्रायाः सन्ति। ध्येयमस्ति यत् अस्य मासस्य त्रयोदशीतः महाकुम्भ अनुष्ठानं समारभते। एतदर्थं सुरक्षादृशा तत्र अस्थायि जनपदं कुम्भनगरं प्रशासनेन प्रकल्पितमस्ति। महाकुम्भस्य भव्यतया साफल्येन च समनुष्ठानार्थं गंगा यमुना सरस्वतीनां संगमतटे पवित्रस्नानार्थं विशेषरूपेण घट्टाः विनिर्मिताः सन्ति। स्वच्छतायाश्च सविशेषं ध्यानं दीयते। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अद्य सायं महाकुम्भ अनुष्ठानस्य सज्जतानां विशेषनिरीक्षणमपि करिष्यति। अथ च अस्मिन् महाकुम्भमेलके दैशिकाः वैदेशिकाः च आहत्य भूरिमात्रायां भक्ताः श्रद्धालवः एकत्रिताः भविष्यन्ति इति आशास्यते। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newzoneair.gov.in इत्यत्र अथ च newzoneair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय पथ परिवहन राजमार्ग मन्त्री नितिन गडकरी अवोचत् यत् प्रशासनस्य लक्ष्यं राष्ट्रस्य ऊर्जा आयातकात् ऊर्जा निर्यातक रूपे परिवर्तनं वर्तते। मध्यप्रदेशस्य पीथमपुरे नेशनल ऑटोमोटिव टेस्ट ट्रैक इत्याख्ये कार्यक्रमे तेनोक्तं यत् भारतं अनवरतं वैकल्पिक ऊर्जसां स्रोतांसि समेधयति। श्री गडकरिणा प्रोक्तं यत् हाइड्रोजन इत्येतत् भविष्यस्य इन्धनं वर्तते। अमुनोक्तं यत् प्रशासनं नैके ऑटोमोबाइल इति समवायाश्च अस्यां दिशि कार्याणि आचरन्ति। तेन देशस्य आर्थिक वृद्धौ अस्य उद्योगस्य महत्वमपि प्रकाशितम्। सममेवोक्तं यत् अनेन क्षेत्रेण इदानीं यावत् सार्धचतुःकोट्यधिकाः आजीविकावसराः सृष्टाः सन्ति। आन्ध्रप्रदेश स्थिते तिरुपति मन्दिरे भगवतः दर्शन समये दुरापन्न ससम्भ्रम पलायन दुर्घटनायां षड् जनाः पञ्चतां प्राप्ताः, अनेके च व्रणिताः सूच्यन्ते। दुःखदं वृत्तान्तमिदं निध्याय राष्ट्रपतिना द्रौपदी मुर्मू वर्यया प्रधानमन्त्रिणा श्रीमोदिना च शोक संवेदनाः प्रकटीकृताः। राष्ट्रपतिना सामाजिक संजाले प्रेषिते सन्देशे व्रणितानां स्वास्थ्यलाभस्य कामना कृता। तत्रैव प्रधानमन्त्रिणापि मृतकानां कुटुम्बजनेभ्य सान्त्वना प्रदानपूर्वकम् आहतीभूतानां शीघ्रं स्वास्थ्यलाभस्य प्रार्थना कृता। ऋतुविज्ञान विभागेन श्वः जम्मू कश्मीरस्य लद्दाखस्य च पृथक् पृथक् स्थानेषु शीतलहर्या अनुमानं प्रकटितम्। हरियाणायाः चण्डीगढ़ हरियाणां दिल्लीं च समेत्य देशस्य पूर्वोत्तर राज्यानां कतिपय भागेषु आगामि दिनद्वये सघनकुज्झटिका प्रभावः द्रष्टुं शक्यते। अथ च बैडमिंटन स्पर्धायां भारतस्य एचएस प्रणयः अद्य क्वालालम्पुर नगरे मलेशिया ओपन इति स्पर्धाया पुरुषवर्गे प्राक् प्रागुपान्त्यचक्रे चीनदेशस्य ली शिफेङ्गः इत्यनेन पराभूतः। स्पर्धायां महिला युगलवर्गे अपि भारतीय दलं स्पर्धातो बहिर्भूतम् इति वार्ताः।